इन्द्रम् विश्वा अविव्रधन् समुद्रव्यत सङ्गिराः रथेतमम् रथेनाम् वाजानाम् सत्पतिम् पतिम् सख्येत इन्द्रवाजिनो माभेमशवसस्पते त्वामभिप्रणो नुमोचेता रमपराजितम् पूर्वेरिन्द्रस्य रातयो न विदस्यन्त्योतयाः यदि वाजस्य गोमतस्तोतृभ्योमम् हते मघम् पुराम् भिन्दुर्युवा कविरमितौ अजायत इन्द्रो विश्वस्य कर्मणो धर्ता वज्रे पुरुष्टुतः त्वम् बलस्य गोमतोपावरद्रिभो बिलम् त्वान् देवा अभिभ्युषस्तुज्यमानास आविशोः त्वमाहम् शोररातिभिः प्रत्याजम् सिन्धुमावदन् उपातिष्ठन्त गर्वणो विदुष्टे तस्य कारवाः मायाभिरिन्द्रमाजिनम् त्वम् शश्नमवातिरः विदुष्टे तस्य मेधिरास्तेषाम् श्रवाम् स्युत्तिर इन्द्रमीषा नमोजसाभिस्तोमा अनोषत सहस्रयस्य रातय उत भासन्ति भोजसीः